अथ सप्तम स्कंध
अथ नवमोध्याय नारद उवाच एवं सुरादय सर्वे ब्रह्मरुद्रपुरहसरा नोपैतुमशकन्मल्लो समम्भं सुदुराशदम् साक्षात् श्री प्रेषिता देवैर्दृष्ट्वा तन्महदद्भुतम् अदृष्टसुत पूर्ववत्त्वा सा नोपेयाय शंकिता प्रहलादम् प्रेषयामास ब्रह्मावस्थितमन्तिके तात प्रसमयोपेहि स्वपित्रे कुपितं प्रभुम् तथेति शनकैराजन् महाभागवतोर्भकः उपेत्य भूमिकाये न ननाम विधृताञ्जलिः स्वपादमूले पतितं तमर्भकं विलोक्य देवः कृपया परिप्लुतः उत्थाप्य तच्छृष्ण्य दधात् कराम्बुजम् काला हि वित्रस्तधियां कृताभयम् स तत्करस्पर्शधृताखिला शुभः सपाद्यभिव्यक्तपरात्मदर्शनः तत्पादपद्मम् हृदि निर्वृतो दधौ हृष्यत्तनुः क्लिन्न हृदश्रुलोचनः अस्तौ सिद्धहरिमेकाग्र मनसा सुसमाहितः प्रेम गदगदया वाचा तन्यस्त हृदय क्षणः प्रह्लाद उवाच ब्रह्मादयः सुरगणा मुनयोत्त सिद्धः सत्त्वैकता नमतयो वचसाम् प्रवाहहि नाराधितुम् पुरगुणैरधुनापि पिप्रुः किन्तोष्टुमर्हति समे हरिरुग्रजातेः मन्ये धनाभिजनरूप तपः सुतौज तेज प्रभाव बल पौरुष बुद्धियोगः नाराधनाय हि भवन्ति परस्य पुंसो भक्त्या ततो स भगवान् गजजुत्थपाय विप्रादुषड्गुणयुतादरबिन्दलाभ पादारबिन्द विमुखा स्वपचम् वरिष्ठम् मन्ये तदर्पितमनो वचने हितार्थ प्राणम् पुनाति सकुलम् न तु भूरिमानहम् नैवात्मनः प्रभुरयम् निजलाभपूर्णो मानम् जनादविदुष करुणो वृणीते यद्यज्जनो भगवते विदधीतमानम् तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः तस्मादहम् विगत विक्लव ईश्वरस्य सर्वात्मना महि गृणामि यथा मनीषम् नीचो जया गुण विसर्गमनु प्रविष्टः पूयेत जे नहि पुमाननुवर्णितेन सर्वे यमी विधिकरास्तव सत्त्वधाम्न ब्रह्मादयो वयमिवेशन तुच्छो द्विजन्तः क्षेमाय भूतय उतात्मसुखाय चास्य विक्रीडितम् भगवतो रुचिरावतारैः तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य मोदेत साधुरपि स्पृश्चिक सर्पहत्या लोकाश्च निर्वृत्तिमितः प्रतियन्ति सर्वे रूपम् नृसिंह विभयाय जना स्मरन्ति नाहम् बिभेम्यजित तेति भयानकाश्य जिह्वार्कनेत्र भृकुटीरभसोग्रदंष्टात् अन्तःस्रजः क्षतजकेशरशङ्कुकर्णात् निर्ह्लाद भीत दिगिभादरिभिन्नखाग्रात् त्रस्तोऽस्म्यहम् कृपणवत्सल दुःसहग्र संसार चक्र कदनाद् ग्रसताम् प्रणीतः बद्धः स्वकर्मभिरुषत्तमतेऽङ्घ्रिमूलम् प्रीतोपवर्ग शरणम् वयसे कदानु यस्मात् प्रिया प्रिय वियोग सजोग जन्म शोकाग्निना सकलजो निषदह्यमानः दुःखौषधम् तदपि दुःखमतद्धियाहम् भूमन् भ्रमामि बदमे तव दास्य योगम् सोऽहम् प्रियस्य सुहृदः परदेवताया लीला कथास्तव नृसिंह विरिञ्च गीतः अञ्जस्तितर्म्यनुगृणन् गुण विप्रमुक्तो दुर्गाणि ते पदजुगालय हंस संगः बालस्य नेह शरणम् पितरौ नृसिंह नार्तस्य चागदमुदन्वति मज्जतो नौ तप्तस्य तत्प्रतिविधिर्यैहाञ्जश्रेष्ठः तावद् विभो तनुभृताम् त्वदुपेक्षितानाम् यस्मिन् जतो जर्हि जे न च जस्य जस्मात् जस्मै जथा जदुतजस्त्वपरः परो वा भावः करोति विकरोति पृथक् स्वभावः संशोधितस्तदखिलम् भवतः स्वरूपम्। माया मनः सृजति कर्ममयम् बलीयः कालेन चोदित गुणानुमतेन पुंसः छन्दोमयम् जदजयार्पितषोडशारम् संसारचक्रमजकोतितरे त्वदन्यः। सत्त्वम् हि नित्यविजितात्मगुणः स्वधाम्ना कालो वशीकृत विसृज्य विसर्गशक्तिः। चक्रे विसृष्टमजये स्वरषोडशारे निष्पीड्यमानमुपकर्ष विभो प्रपन्नम्। दृष्टा मया दिवि विभोऽखिलधिष्णुपानाम् आयुः श्रियो विभव इच्छति जाञ्जनोऽयम्। यस्मत्पितुः कुपितहासबृजिम्भितभ्रु विस्फूर्जितेन लुलितः स तु ते निरस्तः। तस्मादमुस्तनुभृतामहमाशिषोऽज्ञ आयुः श्रियम् विभो मैन्द्रियमाविरिञ्चात्। नेच्छामि ते विलुलितानुरुविक्रमेण कालात्मनोपनयमाम् निजभृत्यपार्श्वम्। कुत्राशिषः श्रुतिसुखा मृगतृष्णिरूपः क्वेदम् कलेवरमशेषरुजाम्बिरोहः। निर्विद्यते न तु जनो जदपीति विद्वान् कामानलम् मधुलवैः शमयन् दुरापैः। क्वाहम् रजः प्रभव ईशतमोऽधिकेऽस्मिन् जातः सुरेतरकुले क्व तवानुकम्पा। न ब्रह्मणो न तु भवस्य न वै रमाया जन्मेऽर्पितः शिरसि पद्मकरः प्रसादः। नैषा परावर्मतिर्भवतो ननु स्यात् जन्तोर्जथात्मसुहृदो जगतस्तथापि। संसेवया सुरतरोरिव ते प्रसादः सेवानुरूपमुदयो न परावरत्वम्। एवम् जनम् निपतितम् प्रभवा हि कूपे कामाभिकाममनुय प्रपतन् प्रसङ्गात्। कृत्वात्मसात् सुदर्शिणा भगवन् गृहीतः सोऽहम् कथम् विसृजे तव भृत्य सेवाम्। मत्प्राणरक्षणमनन्तपितुर्बधश्च मन्ये स्वभृत्यऋषिवाक्यमृतम् विधातुम्। खड्गम् प्रगृह्य जदवोचदसद्विधित्सु त्वामीश्वरो मदपरोऽवतुकम् हरामि। एकस्त्वमेव जगद्दे तदमुष्यजत्वम् आद्यन्तयोः पृथगवश्यसि मध्यतश्च। सृष्ट्वा गुणव्यतिकरम् निजमायेदम् नानेव तैरवसितस्तदनु प्रविष्टः। त्वम् वा इदम् सदसदीश भवांस्ततोऽन्य माया जदात्मपरबुद्धिरियम् ह्यपार्था। यज्जस्य जन्म निधनम् स्थितिरीक्षणम् च तद्वै तदेव वसुकालवदष्टि तर्व। न्यस्येदमात्मनि जगद्बिलयाम्बुमध्ये शेषे आत्मना निजसुखानुभवो निरीह। योगेन मीलिदृगात्मनिपीतनिद्रस्तुर्जे स्थितौ न तु तमो न गुणाश्च जुङ्क्षे। तस्यैव ते बपुरिदम् निजकालशक्त्या संचोदित प्रकृतिधर्म आत्मगूढम्। अम्भस्यनन्तशयनाद्विरमत्समाधिर्नाभेरभूत् स्वकणिका कणिका वटवन्महाब्जम्। तत्सम्भवः कविरतोऽन्यदपश्यमानः त्वाम् बीजमात्मनि ततम् स्वबहिर्विचिन्त्य। नाविन्ददब्धशतमप्सु निमज्जमान जातेऽङ्कुरे कथमहोपलभेत बीजम्। सत्त्वात्मयोनि अतिविस्मित आस्थितोऽब्जम् कालेन तीव्रतपसा परिशुद्धभावः। त्वामात्मनि स भुवि गन्धमिवाति सूक्ष्मम् भूतेन्द्रियाशयमये विततम् ददर्श। एवम् सहस्रबदनाङ्घ्रिशिरः करोरुनाशास्य कर्णनयना भरणायुधाढ्यम्। मायामयम् सदुपलक्षित सन्निवेशम् दृष्ट्वा महापुरुषमापमुदम् विरिञ्चः। तस्मै भवान् हयशिरस्तन्वम् च बिभ्रत्। वेदद्रुहौ अतिबलौ मधुकैटभाख्यौ हत्वा नयच्छ्रुतिगणास्तु रजस्तमश्च सत्वं तव प्रियतमां तनुमामनन्ति इत्थं नृत्तिर्यग्ऋषिदेवजखावतारै लोकान् विभावयसि हंसि जगत्प्रतीपान् धर्मं महापुरुषपाशजुगान्वृत्तं छन्नः कलौ जदभवस्त्रिजुगोऽथ सत्वम् नैतन्मनस्तव कथासु विकुण्ठनाथ सम्प्रीयते दुरितदुष्टमसाधुतीव्रम् कामातुरम् हर्षशोकभयषडार्थम् तस्मिन् कथम् तव गतिम् विमृशामि दीनः जिह्वै कतोचित् विकर्षति मा वितृप्ता शिश्नोऽन्यतस्त्वगुदरम् श्रवणम् कुतश्चित् घ्राणोऽन्यतश्च पलदृक् क्वच कर्म शक्तिर्बह्व्यः सपत्नैव गेहपतिम् लुनन्ति एवम् स्वकर्म पतितम् भौ वैतरण्याम् अन्योन्यजन्ममरणासनभीतभीतम् पश्यञ्जनम् स्वपरविग्रहवैरमैत्रम् हन्तेति पारचरपिप्रिमूढमद्य कोऽन्वत्र तेऽखिल गुरो भगवन् प्रयास उत्तारणेऽस्य भवसम्भवलोपहेतोः मूढेषु वै महदनुग्रह आर्तबन्धो किम् तेन ते प्रियजनाननुसेवताम् नहम् नैवो द्विजे परदुरत्यै वैतरण्यास्त्वद्वीर्जगायन महामृतमग्नचित्तः शोचे ततो विमुखचेतस इन्द्रियार्थ मायासुखाय भरमुद्वहते विमूढान् प्रायेण देवमुनयः स्वविमुक्तिकामा मौनम् चरन्ति विजलेन परात्मनिष्ठा नैतान् विहाय कृपणान् विमुमुक्षयेको नान्यम् पुदन्यम् शरणम् भ्रमतोऽनुपश्ये जन्मैथुनादिगृहमेधि सुखम् हितुच्छम् कण्डूयनेन करयोरिव दुःख दुःखम् तृप्यन्ति नेह कृपणा बहु दुःखभाजः कण्डूतिवन् मनसिजम् विषहेत धीरः मौन व्रत श्रुत तपोऽध्ययन स्वधर्म व्याख्यारहो जप समाधयापवर्ग्यः प्रायः परम् पुरुष्ते त्वरितेन्द्रियाणाम् वार्ता भवन्ति उत्तन वात्र तु दाम्भिकानाम् रूपे इमे सदसति तवद्वेदसृष्टे बीजाङ्कुरा विवनच्चान्यदरूपकस्य युक्तः समक्षमुभयत्र विचिन्वते त्वाम् योगेन वह्निमिव दारुषु नान्यतः स्यात् त्वम् वायुरग्निरवनिर्वियदम्बुमात्रः प्राणेन्द्रियाणि हृदयम् चिदनुग्रहश्च सर्वम् त्वमेव सगुणो विगुणश्च भूमन् नान्य त्वदस्त्यपि मनो वचसा निरुक्तम् नैते गुणान् गुणिनो महदादयो ये सर्वे मनः प्रभृतयः सह देवमर्त्याः आद्यन्तवन्तौरुगाय विदन्ति हि त्वाम् एवम् विमृश सुधियो विरमन्ति शब्दात् तत्तेर्हतम नमः स्तुतिकर्म पूजा कर्म स्मृतिश्चरणयोः श्रवणम् कथायाम् संसेवया त्वयि विनेति सदङ्गया किम् भक्तिम् जनः परमहंसगतौ लभेत नारद उवाच एतावद् वर्णितगुणो भक्त्या भक्तेन निर्गुणः प्रह्लादम् प्रणतम् प्रीतो जतमन्युरभासतम् श्रीभगवान् उवाच प्रह्लाद भद्र भद्रम् ते प्रीतोऽहम् ते सुरोत्तम वरम् वृणीष्वाभिमतम् कामपूरोऽस्म्यहम् नृणाम् मामप्रीणतयायुष्मन् दर्शनम् दुर्लभम् हि मे दृष्ट्वा माम् न पुनर्जन्तुरात्मानम् तप्तुमर्हति प्रीणन्ति यथ माम् धीरा सर्वभावेन साधवः श्रेयस्कामा महाभागा सर्वासामाशिषाम्पतिम् एवम् प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः एकान्तित्वाद् भगवति नैच्छत्तानसुरोत्तमः इति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तमस्कन्धे प्रह्लादचरिते भगवतस्तौ नाम नवमोऽध्यायः।